All attendees are in listen-only mode.
सर्वेभ्यः नमस्कारः शुद्धिकौमुदी कक्षां प्रति भवतां सर्वेषां हार्दं स्वागतम्. गतसप्ताहे कारणान्तरवशात् कक्षा चालयितुं न शक्या आसीत्, तदर्थं सर्वेषां क्षमां प्रार्थयामि. पूर्वतनकक्षायां सुबन्ताः इति विषये किञ्चित् वयं दृष्टवन्तः, तस्य अनुवर्तनम् इदानीं कुर्मः. औत्तरेयाः हिन्दीभाषया वदन्ति प्रायः इति बहुधा अस्माभिः प्रयुज्यते. औत्तराः इति वक्तव्यम्. तत्र वार्तिकमस्ति उत्तरादाहय इति. तस्य तेन वार्तिकेन उत्तराद् उत्तरशब्दात् आहिङ् प्रत्ययः भवति. तदा औत्तराः इति शब्दः सिद्धः भवति. औत्तरेयः इति रूपं तु अस्ति. उत्तरा शब्दात् ढक् इति प्रत्ययः यदि क्रियते तदा औत्तरेयः इति रूपं भवति. किन्तु औत्तरेयः इति रूपस्य अपत्यम् इत्यर्थः. उत्तरस्य अपत्यम् अथवा उत्तरायाः अपत्यम्, तस्मिन्नर्थे औत्तरेयः इति रूपं तु सिद्ध्यति. उत्तरायाः अपत्यम् इति अर्थः. किन्तु अत्र सः अर्थः न अभिप्रेतः. उत्तरभारतीयाः इति अर्थं वक्तुं यदा शब्दः प्रयुज्यते तदा औत्तराः इति वक्तव्यम्. औत्तराः हिन्दीभाषया वदन्ति इति प्रयोक्तुं शक्यते. औत्तरेयाः इति शब्दस्य उत्तरायाः अपत्यम्, उत्तरा इति काचित् तस्याः पुत्राः अथवा पुत्र्यः अपत्यम् इति अर्थः अस्ति चेत् तदा औत्तरेयाः इति. उत्तरभारतीयाः इति तस्मिन् अर्थे नाम उत्तरप्रदेशवासिनः उत्तरभारतीयाः इत्यर्थे उत्तराः इति वक्तव्यम्. एवमेव वाराणसेयः इति शब्दः अपि. वाराणसेयः इति शब्दे अपि ढक् इति प्रत्ययः भवति तदा वाराणसेयः इति रूपं सिद्ध्यति. वाराणसीयः इति बहुधा दोषयुक्तं तु प्रयुज्यते तथा न प्रयोक्तव्यम्. वाराणसेयः इत्येव. राष्ट्रियशब्दविषये अस्माकं बहुधा भ्रान्तिः भवति. वयं सर्वत्रापि प्रादेशिकभाषाप्रभावकारणतः राष्ट्रीया समस्या इति प्रयोगं कुर्मः. तत्र सर्वत्रापि राष्ट्रिया इति वक्तव्यम्. राष्ट्रशब्दः तस्मात् शब्दात् घ प्रत्ययः भवति. राष्ट्रावारपारात् घौ इति सूत्रेण राष्ट्र इति शब्दः तस्मात् शब्दात् घ इति प्रत्ययः भवति. घ इति प्रत्ययस्य इय इति आदेशः भवति. राष्ट्र इति शब्दः तस्मात् घ इति प्रत्ययः राष्ट्र घ इति स्थितिः. तदनन्तरं घ इत्यस्य इयः भवति, नाम इय इति प्रत्ययः भवति. आयनेयीनि इयः इति सूत्रेण तदा राष्ट्र इय इति भवति. तदनन्तरं प्रक्रियावशात् राष्ट्रियः इति रूपं सिद्ध्यति. अतः राष्ट्रिया समस्या इत्येव रूपं वक्तव्यम्. केचन अत्र वृद्धाच्छः इति सूत्रेण छ प्रत्ययः भवति, छ इत्यस्मात् ईयः भवति, तदा राष्ट्रियः इति सिद्ध्यति इति केचन वदन्ति. किन्तु तत् न समीचीनम्, यतः छ प्रत्ययः सामान्यतया विहितः, घ प्रत्ययः तु विशेषेण विहितः. तयोः प्रत्ययोः बाध्यबाधकभावः अस्ति. अतः छ प्रत्ययः छ प्रत्ययं बाधित्वा घ प्रत्ययः एव भवति सः राष्ट्रियः एव रूपम् किन्तु महाराष्ट्रियः इति यदि वयं प्रयोगं कुर्मः महाराष्ट्रियाः मराठीभाषया भाषन्ते तत् न समीचीनम् यथा पूर्वम् अस्माभिः पठितं राष्ट्रिय इति वक्तव्यम् इति किन्तु राष्ट्रियशब्दस्य नियमः राष्ट्रिय इति शब्दस्य विषये एव महाराष्ट्रिय इति यदि वक्तव्यं तदा महाराष्ट्रीय अत्र कश्चन दोषः जातः अस्ति महाराष्ट्रीयाः ट्र इति भवेत् अत्र महाराष्ट्रीयाः इति रूपं साधु अत्र राष्ट्रशब्दः अस्ति किन्तु अत्र राष्ट्रशब्दः नास्ति शब्दः तु महाराष्ट्रशब्दः राष्ट्रशब्दः यदि स्यात् तदा राष्ट्रियः इति रूपम् अभविष्यत् किन्तु अत्र शब्दः महाराष्ट्रशब्दः महाराष्ट्रशब्दः राष्ट्रशब्दात् अन्यः अतः घ प्रत्ययः न भवति घ प्रत्ययः न भवति चेत् कः प्रत्ययः इत्युक्ते छ प्रत्ययः छ प्रत्ययः यदा भवति व्याकरणे कश्चन नियमः अस्ति खलु येन विधिस्तदन्तस्य इति यस्य विधानं क्रियते तदन्तस्य भवति इति सूत्रेण येन विधिस्तदन्तस्य इति सूत्रेण राष्ट्रशब्दात् विहितः प्रत्ययः महाराष्ट्रशब्दस्यापि भवति इति न वक्तव्यम् यतः येन विधिस्तदन्तस्य इति सूत्रस्य कश्चन निषेधः उक्तः समासप्रत्ययविधौ प्रतिषेधः इति तेन वार्तिकेन समासविधौ नाम समासविधायकसूत्रे प्रत्ययविधौ च प्रतिषेधः उक्तः निषेधः उक्तः कस्य निषेधः उक्तः यद् यः पूर्वम् इदानीं घ प्रत्ययः विहितः राष्ट्रियशब्दात् तस्य निषेधः तत्र उक्तः कुत्र निषेधः उक्तः समासविधौ प्रत्ययविधौ च अत्र राष्ट्रावार इति पूर्वोक्तेन सूत्रेण घ प्रत्ययः विधीयते एषः प्रत्ययविधिः प्रत्ययविधौ प्रतिषेधः इति उक्तम् अतः महाराष्ट्रीय इत्यत्र ईकारः एव ह्रस्वः नास्ति एवमेव बहूनि पदानि सन्ति बहुराष्ट्रीय हिन्दुराष्ट्रीय इत्यादिशब्दाः यदा प्रयुज्यन्ते राष्ट्रशब्दात् पूर्वं समासाङ्गत्वेन यत्किमपि पदम् अस्ति चेत् तदा घ प्रत्ययः न भवति छ प्रत्ययः भवति छ प्रत्ययः यदा भवति ईय इति दीर्घः एव भवति ह्रस्वः न भवति बहुराष्ट्रीया हिन्दुराष्ट्रीया तत्र सर्वत्रापि दीर्घः एव राष्ट्रशब्दस्य प्रयोगे केवलराष्ट्रशब्दः नाम पूर्वपदं किमपि नास्ति चेत् केवलस्य राष्ट्रशब्दस्य प्रयोगे ह्रस्वः भवति इति विवेकः दुष्टैः जनानां हत्या कृता इति प्रादेशिकभाषाप्रभावतः बहुधा प्रयुज्यते हत्या इति शब्दः संस्कृते नास्ति हत्या इति शब्दः तस्मिन् अर्थे संस्कृते न भवति हननं कृतम् इति वक्तव्यम् हत्या इत्यत्र हनधातोः क्यप् प्रत्ययः कृतः स च प्रत्ययः सुपि उपपदे एव विहितः यदि उपपदं किमपि भवति तदा एव क्यप् प्रत्ययः कर्तुं शक्यते अत्र तु उपपदं किमपि नास्ति अतः हत्या इत्यत्र उपपदं किमपि नास्ति इत्यतः क्यप् प्रत्ययः न भवति सुपि उपपदे इति नियमः कुत्र उक्तः इति चेत् हनस्तच इति पाणिनीयसूत्रे तृतीये अध्याये प्रथमे पादे पाणिनीयसूत्रे सुपि उपपदे इति स्पष्टम् उक्तमस्ति. सिद्धान्तकौमुद्याः व्याख्यानमस्ति बालमनोरमा इति. तस्यां बालमनोरमा टीकायामपि निरुपपदं हत्या इति तु असाधु एव. नाम हत्या इति यदि उपपदरहितं प्रयुज्यते तदा तत् असाधु एव. निरुपपदम् उपपदरहितं हत्या इति रूपम् असाधु इति स्पष्टम् उक्तम्. किन्तु ब्रह्महत्या आत्महत्या इति रूपाणि तु भवन्ति एव साधवः ते शब्दाः. अतः पूर्वम् उपपदमस्ति. यदि उपपदमस्ति हत्या इति नाम ब्रह्महत्या इति वा आत्महत्या इति वा उपपदसहितं हत्या इति रूपं शुद्धम्. केवलं हत्या इति रूपं शुद्धं न भवति. हत्या इत्यस्य स्थाने हननं कृतम् इति अस्माभिः वक्तव्यम्. आरक्षकभटैः हन्तकः मारितः. हन्तकः इति अपशब्दः. हननकर्ता इति अर्थः अत्र अपेक्षितः. हनधातोः कर्त्रर्थे नूल् प्रत्ययः अत्र कृतः हन्तकः इत्यत्र. हनधातोः नूल् प्रत्यये हनस्तोचिण्णलोः इति सूत्रेण हन्ति इत्यस्य तकारः भवति. होहन्तेः इति अन्येन सूत्रेण हकारस्य घकारः भवति. युवोरनाको इति यः नूल् प्रत्ययः सिद्धः अस्ति तस्य वकारस्य अक आदेशः भवति. तदा घातकः इति रूपं सिद्ध्यति. अतः आरक्षकभटैः घातकः मारितः इति अस्माभिः शुद्धं रूपं वक्तव्यम्. हन्तकः इति रूपं तु कथमपि न भवति. कर्तृत्वे पूर्वम् अत्र नूल् प्रत्ययः कृतः हन्तकः इत्यत्र. अन्येऽपि प्रत्ययाः भवन्ति तृच् निनि इत्यत्र. तृच् प्रत्यये हन्ता इति रूपं सिद्ध्यति. निनि प्रत्यये घाति इति रूपं सिद्ध्यति. किन्तु हन्तकः इति रूपं कथञ्चिदपि न सिद्ध्यति. तस्मिन् अर्थे आरक्षकभटैः हन्तकः मारितः इति वक्तुं न शक्यते. घातकः मारितः इति वक्तव्यम्. एतावत्पर्यन्तम् उक्तेषु विषयेषु केऽपि प्रश्नाः सन्ति चेत् कृपया हस्तम् उत्तोलयन्तु. प्रश्नान् प्रष्टुमर्हन्ति. यदि प्रश्नाः न सन्ति अग्रिमान् विषयान् वयं पश्यामः. पूर्वतनकक्षायां कस्यचित् प्रश्नः आसीत् सुमङ्गला इति शब्दः अस्माभिः पूर्वं स्वीकृतः आसीत्. तस्य विषये प्रश्नः आसीत्. दीर्घसुमङ्गली भव इति उच्यते, तत्र कथं व्यवस्था इति. तादृशाः प्रयोगाः सन्ति प्रादेशिकभाषासोपि अभ्यस्ताः संस्कृतप्रयोगाः इति. किन्तु तादृशस्य प्रयोगस्य कुत्रापि उदाहरणं दृष्टं चेत् तन्नाम शिष्टप्रयोगः अस्ति इति कुत्रापि लब्धं चेत् तादृशप्रयोगः भवितुमर्हति. एतावता तु कोऽपि शिष्टप्रयोगः नास्ति. अतः सद्यः अस्माकं तु सुमङ्गला इत्येव रूपम् इति अस्माभिः ज्ञातव्यम्. अग्रे गच्छामः. अपत्यहीनाः वृद्धाप्ये कष्टम् अनुभवन्ति. एषः अपि प्रादेशिकभाषा प्रभावतः एवं दोषः प्रयुज्यते, वृद्धाप्यम् इति. वार्धक्ये अथवा वार्धक्ये इति प्रयोक्तव्यम्. वृद्धः एव वृद्धकः, स्वार्थे सः क प्रत्ययः. वृद्धकस्य भावः वार्धक्यम्. गुणवचन ब्राह्मणादिभ्यः श्यै इति सूत्रेण श्यै प्रत्ययः भवति. वार्धक्य इति श्यै प्रत्ययः भवति. वृद्धस्य आप्तुं योग्यं यत्किञ्चित् अस्ति चेत् तत् वृद्धाप्यं भवितुम् अर्हति. कश्चित् वृद्धः किमपि प्राप्तुम् आप्तुं तस्य योग्यं यत्किञ्चित् यदि भवति तस्य वृद्धाप्यम् इति वक्तुं शक्नुमः. किन्तु अत्र सः अर्थः न अभिप्रेतः. बाल्यं यौवनम् इत्यादि अवस्थाविशेषः यः अस्ति वृद्धावस्था इति, दशाविशेषः अत्र वक्तुम् इष्टः, स च भावार्थकः. केचन एवमपि वदन्ति वार्धक्यविषये, वृद्धस्य भावः वार्धकम्, द्वन्द्वमनोज्ञादिभ्यश्च इति सूत्रेण वुञ् प्रत्ययः भवति, वार्धकमेव वार्धक्यम्. चतुर्वर्णादीनां स्वार्थे श्यै वक्तव्यः इति वार्तिकेन स्वार्थे श्यै भवति, अतः भावार्थकः वुञ् अथवा वुञर्थकः श्यै प्रयोक्तव्यः इति केचन वदन्ति वैयाकरणाः. किन्तु सिद्धान्तकौमुद्यां यदि दत्तानि उदाहरणानि पश्यामः एवं समर्थनं तस्य अनुचितम् इति भाति. अतः वार्धकम् अथवा वार्धक्यम् इत्येव प्रयोक्तव्यम्. वृद्धाप्यम् इति असाधुः प्रयोगः. अपत्यहीनाः वार्धक्ये कष्टमनुभवन्ति इति प्रयोक्तव्यम्. केरळेषु सर्वे अक्षरस्थाः एव. एषः अपि प्रायः प्रादेशिकभाषाप्रभावकारणतः प्रयोगः भवति. अक्षरज्ञाः इति प्रयोक्तव्यम् अथवा साक्षराः इति. यः अक्षरे तिष्ठति सः अक्षरस्थः. अक्षरे यः तिष्ठति सः अक्षरस्थः भवति. अतः यस्मिन् अर्थे इदानीं प्रयुज्यते सः शब्दः लिटरेट् इत्यर्थे, तस्मिन् अर्थे अक्षरज्ञः अथवा साक्षरः इति प्रयोक्तव्यम्. अत्र तु अक्षरज्ञता अपेक्षते, अतः अक्षरज्ञः इति प्रयोगः करणीयः अथवा साक्षरः इति प्रयोक्तव्यम्. अक्षरस्थः इति तस्मिन् अर्थे साधु प्रयोगः न भवति. अक्षरे तिष्ठति इति अर्थे तु अक्षरस्थः इति प्रयोक्तुं शक्यते. अन्यः अपि कश्चन शब्दः अस्माभिः बहुधा प्रयुज्यते, दोषयुक्तः शब्दः. अध्यक्षभाषणं श्रुत्वा सर्वे सभिकाः करताडनं कृतवन्तः. अत्र सभ्याः इति वक्तव्यम्. सभायां ये भवन्ति ते इति अर्थः अत्र अपेक्षितः. ये सभायां भवन्ति ते सभ्याः. सभिकाः इत्यस्य अर्थः द्यूतकाराः इति. सभिकाः द्यूतकाराः इति अमरकोशे प्रयोगः अस्ति. सभा इत्यस्य द्यूतस्थानम् इत्यपि अर्थः अस्ति. अतः सभ्याः इति अस्माभिः सभायां विद्यमानाः इत्यर्थे यदि प्रयोक्तव्यम्, सभिकाः इति प्रयोगः समीचीनः न भवति. सभ्याः इति वक्तव्यम्. सभाद्यूतम् आश्रयत्वेन अस्य इति सभिकः. सभिकाः नाम द्यूतकाराः. सभायां ये भवन्ति ते सभ्याः. सभासदस्तवासा सभास्ताराः सभ्याः सामाजिकाश्च ते इति अमरकोशे स्पष्टम् उक्तमस्ति. अतः सभ्य सभिगयोः अर्थभेदः अस्माभिः सम्यक् अवगन्तव्यः. यदि तथा अर्थम् अवगत अर्थस्य अवगमनं विना अस्माभिः प्रयुज्यते तदा ये सम्मानयोग्याः सभ्याः तेऽपि कदाचित् सभिकशब्देन निन्दिताः स्युः. अतः अध्यक्षभाषणं श्रुत्वा सर्वे सभ्याः करताडनं कृतवन्तः इति अस्माभिः प्रयोगः करणीयः. अग्रिमं पदं स्वीकुर्मः. सभायाम् अनुमानतः 300 जनाः आसन्. अयमपि प्रादेशिकभाषाप्रभावकारणतः प्रयुज्यमानः शब्दः. प्रादेशिकभाषायाम् अनुमानशब्दः सन्देहः इति अर्थे प्रयुज्यते अथवा प्रायशः इति अर्थे प्रयुज्यते. किन्तु संस्कृते अनुमानशब्दस्य सः अर्थः नास्ति. प्रायः, प्रायेण, प्रायशः इति एतेषु त्रिषु शब्देषु यत्किमपि एकं पदम् अत्र प्रयोक्तव्यम्. प्रायः 300 जनाः आसन् अथवा प्रायेण 300 जनाः आसन्, प्रायशः 300 जनाः आसन् इति भवितुम् अर्हति प्रयोगः. अनुमानतः इति एषः शब्दः अपेक्षितम् अर्थं न वदति. तर्कशास्त्रे यत् प्रसिद्धम् अस्ति अनुमानम्, अनुमितेः करणम् इति हेतुः इति अस्ति, तत् पारिभाषिकं पदम्. सः अर्थः अत्र न अभिप्रेतः. सः प्रायेण, प्रायशः, प्रायः इति प्रयोक्तुं शक्यते. अहम् अनुमानं करोमि यत् इत्यपि अस्माभिः बहुधा प्रयुज्यते. अत्रापि अनुमानशब्दः अन्यस्मिन् अर्थे प्रयुक्तः अस्ति. तस्मिन् स्थाने अस्माभिः अहम् ऊहां करोमि यत्, अहं चिन्तयामि यत्, अहं तर्कयामि यत् इति वाक्यानि प्रयोक्तुं शक्यानि. अनुमानशब्दस्य अर्थः तु पूर्वम् उक्तः. यः तर्कशास्त्रीयः शब्दः पारिभाषिकः, सः अर्थः अत्र न अपेक्षितः. अत्र कोऽपि हेतुः वा व्याप्तिः वा इति तर्कशास्त्रीयाया परिभाषा सा अत्र न आवश्यकी. अतः अहम् ऊहां करोमि, अहं चिन्तयामि, अहं तर्कयामि इति प्रयोगः भवितुम् अर्हति. इति अनुमानशब्दविषये एतावती व्यवस्था. सहायशब्दः अस्माभिः बहुधा अन्यस्मिन् अर्थे प्रयुज्यते, दोषयुक्तश्च प्रयुज्यते. कृपया मम सहायं करोतु मित्र इति बहुधा अस्माभिः प्रयुज्यते. साहाय्यम् इति प्रयोक्तव्यम्. सहायः नाम सहकर्ता, सः एव स्थितः वा, यः अस्माभिस्सह तिष्ठति अथवा सहकरोति सः सहायः, तस्य नाम सहायः इति. या क्रिया अत्र विवक्षिता, सा क्रिया यदि वक्तव्या तर्हि साहाय्यम् इति वक्तव्यम्. अस्मिन् वाक्ये यदुपरि उक्तं वाक्यमस्ति कृपया मम सहायं करोतु मित्र इति वाक्यं, तस्मिन् वाक्ये सहायस्य भावः कर्म वा अपेक्षितः. तादृशम् अर्थं गमयितुं साहाय्यम् इति एव प्रयोक्तव्यम्. अतः तस्मिन् अर्थे शेप्रत्ययः भवति साहाय्यम् इति रूपम्. तथैव यः जनः पूर्वमुक्तः सः कर्ता सः एव स्थितः जनः यः अस्ति सः सहायकः न सः सहायकः एषः मम सहायकः इति प्रयोक्तव्यम् सहायः नाम सहकर्ता सहायः एव सहायकः स्वार्थे क प्रत्ययः अनुप्लवः सहायश्च अनुचरः अभिचरः समाः इति अमरकोशः तस्य पर्यायपदानि उक्तानि सन्ति अमरकोशे अनुप्लवः सहायः अनुचरः अभिचरः इति एते शब्दाः सहायक इत्यस्य पर्यायपदानि अमरकोशे प्रयुक्तानि सन्ति इत्येतावान् सहायकशब्दस्य विषये प्रयोगः अद्यतनं गायनम् अत्युत्तमम् आसीत् इति बहुधा अस्माभिः प्रयुज्यते एषः अपि प्रयोगः प्रादेशिकभाषाप्रभावकारणत एव गानम् इति वक्तव्यम् अत्र गानक्रिया अभिप्रेता गानम् इति शब्दः कथं सिद्ध्यति गै इति धातुः तस्य भावे ल्युट् प्रत्ययः भवति ल्युट् इत्यत्र यदि यु इति अस्ति तस्य स्थाने अन इति आदेशः भवति तदा गानम् इति रूपं सिद्ध्यति गायनः इत्यस्य गानकर्ता इति अर्थः यः गायति सः गायनः गायनः इत्यत्र म्यूट् प्रत्ययः कर्तृर्थे कुशलः गायकः इति तस्य अर्थः गायनः इत्यस्य गायक गायन इति उभौ शब्दौ अपि समानार्थकौ गानकर्तारौ इति अर्थः अतः अद्यतनं गानम् अत्युत्तमम् आसीत् इति वक्तव्यम् अग्रिमं शब्दं पश्यामः एकस्य तस्य पुस्तकस्य प्रतिः अपेक्षिता इति अस्माभिः प्रादेशिकभाषाप्रभावकारणतः प्रयुज्यते अत्र प्रतिकृतिः इति वक्तव्यम् यतः प्रति इति एकम् अव्ययम् तस्य प्रयोगे विभक्तिप्रत्ययस्य लोपः भवति अतः विभक्तिप्रत्ययः न दृश्यते प्रति इति शब्दः प्रतिकृतिः इत्यर्थे अथवा प्रतिकृतिः इति अर्थे प्रयुक्तपूर्वः नास्ति हिन्दी इत्यादि भाषा प्रभावकारणतः तस्मिन् अर्थे दोषेण प्रयुज्यते अतः एकस्य पुस्तकस्य एका प्रतिः इति प्रयोगः समीचीनः नास्ति प्रतिकृतिः इति प्रयोक्तव्यम् अष्टावधानकार्यक्रमे पृच्छकाः विविधान् प्रश्नान् पृच्छन्ति इति दोषयुक्तः प्रयोगः प्रच्छकाः इति प्रयोगः करणीयः जीप्सार्थकस्य प्रच्छधातोः कर्त्रर्थे नूलि प्रच्छकः इति रूपम् अत्र सम्प्रसारणस्य कापि प्रसक्तिः नास्ति अतः प्रच्छकः इति रूपं न भवति प्रच्छधातोः नूलि प्रच्छकः इति रूपम् इति केचन वदन्ति सा तु तेषां भ्रान्तिः वर्तमाने यः यत् क्रियापदमस्ति पृच्छति इति तस्य सादृश्यं मनसि निधाय तादृशं रूपं ते वदन्ति किन्तु तादृशं रूपं न भवति अत्र काचित् प्रक्रिया अस्माभिः अवलोकनीया अत्र क्रियापदे काचित् व्यवस्था अस्ति सार्वधातुकम् आर्धधातुकम् इति यदि अर्धधातुकम् अथवा सार्वधातुकं चेत् तदा सूत्राणां प्रवृत्तिः भवति अत्र तु तादृशी प्रक्रिया अत्र नास्ति इत्यतः पृच्छकः इति रूपं न भवति अपि तु प्रच्छकः इति रूपं भवति। अतः अष्टावधानकार्यक्रमे प्रच्छकाः विविधान् प्रश्नान् पृच्छन्ति इत्येव शुद्धं रूपम्। पृच्छक इति तु प्रादेशिकभाषा प्रभावकारणतः अथवा भ्रान्त्या तादृशं रूपं प्रयुज्यते। अद्य शारीरिक अध्यापकः अनुपस्थितः अस्ति। एषः अपि प्रादेशिकभाषा प्रभावकारणतः अस्माभिः क्रियमाणः दोषयुक्तः प्रयोगः। शारीरक अध्यापकः इति प्रयोक्तव्यम् अथवा दैहिक अध्यापकः इति प्रयोक्तव्यम्। शरीरस्य अयं शारीरः, ततः स्वार्थे क प्रत्ययः भवति, शरीरसम्बन्धी इति अर्थः। शारीरकः अध्यापकः शारीरकाध्यापकः इति कर्मधारे समासः। शारीरिकः इति रूपं भवति किन्तु तस्य अर्थः न अभि अत्र उक्तः अर्थः न भवति। शरीरेण निर्वृत्तम् इत्यर्थे ठक् प्रत्यये इक इति आदेशे शारीरिक इति पदस्य सिद्धिः तु भवति किन्तु अस्मिन् अर्थे शारीरिक इति पदं नास्ति। अतः अस्य अर्थस्य ज्ञापनाय शारीरक अध्यापकः इति प्रयोक्तव्यम् अथवा दैहिकाध्यापकः इति प्रयोगः भवितुम् अर्हति। मध्ये अत्र कश्चित् प्रश्नः अस्ति शारदा महोदयायाः शृणुमः इति विषये। सः विषयः अत्र अस्मिन्नेव पुस्तके अग्रे स्वीकृतः अस्ति। अग्रिम कक्षायां तान् विषयान् वयं द्रष्टुं शक्नुमः। भवता न्यायेन मार्गेण गन्तव्यम् इति किञ्चन वाक्यम् अस्माभिः प्रयुज्यते। अत्र न्यायेन मार्गेण इति अस्माभिः प्रयोक्तव्यम्। न्यायशब्दः पुल्लिङ्गविशिष्टः अस्ति, सः धर्मिपरः न, अतः अत्र मार्गस्य विशेषणं वक्तव्यम्। धर्मिपरः शब्दः प्रयोक्तव्यः, तदा न्याय्य इति पदम्। न्यायादनपेतः इति अर्थः अपेक्षितः अत्र, अतः न्यायेन मार्गेण गन्तव्यम् इति वाक्यं शुद्धम्। भर्तृहरेः प्रयोगः अपि अस्ति, सुभाषितं वयं प्रसिद्धं जानीमः एव, न्याय्यात् पथः प्रविचलन्ति पदं न धीराः इति प्रसिद्धः प्रयोगः भर्तृहरेः अत्र अस्माभिः स्मर्तुं शक्यः। अन्यः अपि कश्चन भ्रान्त्या प्रयुज्यमानः प्रयोगः निराशया इति। सः निराशया एवम् उक्तवान् इति, निराशतया इति वक्तव्यम्। निर्गत आशा यस्मात् सः निराशः, निराशस्य भावः निराशता। प्रकृत्यादिभ्यः उपसङ्ख्यानम् इति तृतीयान्तस्य क्रियायाम् अन्वयः, अतः निराशतया इति अस्माभिः प्रयोक्तव्यम्। सः निराशतया एवम् उक्तवान् इति वक्तुं शक्यते। सावधान शब्द विषये अपि एवमेव अस्माभिः प्रयोगः द्रष्टव्यः. सावधानतया पठनीयं भवता, भवता सावधानं पठनीयं, भवता भवान् सावधानेन पठेत्. सावधानतया, सावधानं, सावधानेन इति एवं त्रिधा अपि प्रयोगः युक्तः एव. अवधानेन सहितः सावधानः, तस्य भावः सावधानता. तस्य प्रकृत्यादित्वात् नाम पूर्वमुक्तं प्रकृत्यादिभ्यः उपसङ्ख्यानमिति, सः प्रकृत्यादिगणे प्रविष्टः, सः प्रकृत्यादिगणे प्रविष्टः इति कारणात् तृतीयान्ततया क्रियायाम् अन्वयं प्राप्नोति. अवधानेन यथा, अवधानेन सह यथा स्यात् तथा इति तस्य अर्थः. सः सावधानतया इति शुद्धमेव रूपम्. सावधानेन इत्यत्र मनसा इति पदम् अध्याहरणीयं भवति. अवधानसहितेन मनसा इति तत्र तात्पर्यम्. सावधानेन भोक्तव्यम् इति बहुधा प्रयुज्यते. तत्रापि मनःशब्दस्य अध्याहारः करणीयः, नो चेत् तस्य वाक्यस्य शुद्धता न भवति. सावधानेन मनसा इति तत्र मनःशब्दस्य अध्याहारः करणीयः. अतः सावधानतया, सावधानं, सावधानेन इति त्रिविधमपि रूपं शुद्धम् एव. भवता सावधानेन गन्तव्यं, न तु वेगेन इति अस्माभिः प्रयुज्यते. सावधानेन इति तस्मिन् अर्थे प्रयोगः नास्ति. मन्दगत्या अथवा मन्दम् इति प्रयोक्तव्यम्. मन्दगतिः इति अर्थे अत्र उपरितनवाक्ये सावधानशब्दप्रयोगः कृतः. तम् आशयं स्पष्टीकर्तुमेव वेगशब्दस्य निषेधः, वेगस्य निषेधः कृतः. किन्तु मन्दगतिः इति अर्थे सावधानशब्दः न युज्यते. यदा कश्चित् अवधानसहितः भवति तदा गतिः मन्दा कदाचित् भवेत्, किन्तु सावधानपदस्य मन्दगतिः इति अर्थः तु नास्ति. अतः तस्य प्रयोगः अत्र औचित्यं न आवहति. भवता मन्दगत्या गन्तव्यम् अथवा भवता मन्दं गन्तव्यम् इति वेगेन इति प्रयोक्तुम् उक्तम्. अन्यः अपि शब्दः प्रसिद्धः एव, प्रादेशिकभाषा प्रभावकारणतः प्रयुज्यमानः, किं भोः अपरूपदर्शनं भवतः इति बहुधा प्रयुज्यते. विरलदर्शनः भवान् इति प्रयोक्तव्यम्. प्रादेशिकभाषा प्रभावकारणतः विरल इति अर्थे अपरूपशब्दस्य प्रयोगः क्रियते. तत् न युक्तम्. अपगतं रूपं यस्मात् सः अपरूपः, रूपहीनः इति अर्थः. तादृशः अर्थः अत्र न अभिप्रेतः. अतः विरलदर्शनः भवान् इति प्रयोक्तव्यम्. राज्ञः धान्यागारे यथेच्छं धनम् अस्ति इति अस्माभिः प्रयुज्यते. एषः अपि शब्दः प्रादेशिकभाषा प्रभावकारणतः एव. यथेच्छम् इति प्रभूतम् इत्यर्थे प्रयुज्यते. अत्रापि प्रभूतम् इत्येव प्रयोक्तव्यम्. अत्र धनस्य बाहुल्यम् इष्यते अथ यथेष्टता यथेच्छम् इत्यस्य अर्थः इच्छाम् अनतिक्रम्य इति धनस्य सत्तायां कस्यापि इच्छायाः प्रसक्तिः नास्ति यथेच्छं प्रभूतम् इति उभयोः अपि प्रयोगः शक्यः क्वचिदेव यथा सः यथेच्छं प्रभूतं कार्यं करोति इति अत्र पर्यायेण उभयोः अपि प्रयोगे न विसङ्गतिः किन्तु तयोः पर्यायार्थकता नास्ति इच्छामनतिक्रम्य इत्यस्य अर्थस्य ज्ञापनाय यथेच्छम् इति प्रयुज्यते किन्तु उपरि द्राज्ञः धान्यागारे इति वाक्ये यथेच्छशब्दः न सङ्गच्छते अत्र प्रभूतपदस्य प्रयोगः न सङ्गच्छते त्वं मम गृहे यथेच्छं वस इति अत्र प्रभूतशब्दः न युज्यते अतः यथेच्छम् इति प्रयोक्तुं शक्यते अतः यथेच्छं प्रभूतम् इति द्वयोः पदयोः अपि अर्थं मनसि निधाय यत्र सङ्गतिः भवति तादृशम् उदाहरणं दृष्ट्वा अस्माभिः प्रयोक्तव्यम् राज्ञः धान्यागारे प्रभूतं धनमस्ति इत्येव समीचीनः प्रयोगः भवतः आगमनेन मम गृहं पुनीतं जातम् इति कश्चन प्रयोगः अस्माभिः क्रियते पुनीतम् इति अपशब्दः पूतम् इति प्रयोक्तव्यम् यः पवनार्थकः पूङ्धातुः अस्ति तस्य क्तप्रत्यये पूतः इति रूपम् एतस्मिन् एव अर्थे पवित्रशब्दः अपि प्रयोक्तुं शक्यः भवतः आगमनेन मम गृहं पूतं जातम् इति प्रयोक्तव्यम् अन्यः कश्चन प्रयोगः दृश्यते अस्माभिः अद्यत्वे जनाः धनैकपराः दृश्यन्ते इति अद्यत्वे इति प्रयोगः न दोषाय हिन्दीभाषायां यत् आजकल् इति प्रयुज्यते तस्मिन् अर्थे अद्यत्वशब्दः प्रयुज्यते बहुधा तत् असहमानाः केचन अस्मिन् अहनि इत्यर्थकात् अद्यशब्दात् भावार्थकात् उप्रत्ययः न दृष्टचरः अतः भावार्थेत्युप्रत्ययात् अद्यतनः इत्येव साधु इति वदन्ति किन्तु सः अभिप्रायः न समीचीनः अद्यत्वे इति भाष्यकारैः अपि प्रयुक्तं दृश्यते अस्मिन् काले इति अर्थः महाभाष्ये पश्पशान्निके एव पुराकल्पे एवमासीत् इत्यादि आरभ्य अद्यत्वे न तथा वेदमधीत्यत्वरिता वक्तारो भवन्ति इति अद्यत्वे इति प्रयोगः भाष्यकारैः एव कृतः अस्ति अतः अद्यत्वे इति प्रयोगः न दोषाय अद्य सृजनात्मकप्रतिभा विरला जाता अस्ति प्रयोगः अस्माभिः क्रियते अत्र सर्जनात्मक इति वक्तव्यम् सर्जनात्मकम् सृजनम् इति अपशब्दः सृजधातोः ल्युट् प्रत्ययः यदा क्रियते तदा गुणः भवत्येव गुणे कृते सर्जनम् इत्येव रूपम् अतः सर्जनात्मकम् इत्येव सर्जनात्मकप्रतिभा इत्येव रूपम् भवति श्रेष्ठशब्दस्य अयम् श्रेष्ठतमः पण्डितः इति अस्माभिः बहुधा प्रयुज्यते श्रेष्ठतमः इति साधुप्रयोगः एव इति अभिप्रयन्ति प्रसिद्धाः वैयाकरणाः चारुदेवशास्त्रिवर्याः अतिशयेन प्रशस्त्यः भवति श्रेष्ठः प्रशस्त्यस्य श्रः इति श्र इति आदेशः भवति अतिशायने तमभिष्ठनौ इति सूत्रेण इष्ठन् प्रत्ययः भवति तदा श्र इष्ठ श्रेष्ठ इति रूपं सिद्ध्यति प्रशस्यतमः इति अर्थः किन्तु केचन वदन्ति एकः प्रत्ययः उक्तः आतिशायने, पुनः अन्यः प्रत्ययः न भवति तमप्रत्ययः इति केचन वदन्ति. श्रेष्ठ इत्यपि इष्ठन्निति आतिशायनिकः प्रत्ययः, पुनः तम इत्यपि आतिशायनिकः खलु, एकः आतिशायनिकः तमप्रत्ययः, तस्मात् पुनः अन्यः तमप्रत्ययः न भवति इति केचन वदन्ति. किन्तु चारुदेवशास्त्रिणः स्पष्टं लिखन्ति, यदा च प्रकर्षवतां पुनः प्रकर्षः विवक्ष्यते तदा आतिशायनिकान्तात् अपरः आतिशायनिकः भवत्येव इति वृत्तौ उक्तं, तेन श्रेष्ठतमः इति साधुप्रयोगः इति चारुदेवशास्त्रिणां विदुषाम् अभिप्रायः. अतः श्रेष्ठतमः इति साधुप्रयोगः. अद्य समाजे जागृतिः न दृश्यते. अत्र अस्माभिः जागृतिशब्दः प्रयुज्यते. जागरिया इति प्रयोक्तव्यम्, जागृतिः इति अपशब्दः. जागर्तेः अकारो वा इति वार्तिकेन अकारः विकल्पेन भवति. यदा अकारः क्रियते तदा जागरा इति रूपम्. अकारः यदा न भवति तदा श प्रत्ययः. शे परतः सार्वधातुके यक् तदा जागरो विचिन्निति गुणः, जागर्या इति रूपम्. अतः जागृधातोः तिन्नन्तं रूपं नास्ति, यतः एषः अपवादरूपेण प्रवृत्तः प्रत्ययः. समाजजागृतिं विना संस्कृतविकासः असाध्यः. अत्र जागर्तिः इति शब्दस्य परिहारः वरम्. जागरा इति वा जागर्या इति वा प्रयोक्तव्यम्. जागृधातोः तिन्नन्तं रूपं नास्ति इति पूर्वम् उक्तमेव. जागर्तिः इत्यत्र तिचि प्रत्ययः. चारुदेवशास्त्रिणः एतद्विषयेऽपि लिखन्ति शब्दापशब्दविवेक इति ग्रन्थे, जागर्तिरिति तिचि कथञ्चित् व्युत्पाद्यं, प्रयोगस्तु जागर्तेः सुदुर्लभः इति. अतः जागर्तिः इति शब्दस्य परिहारः एव वरम्, नाम जागर्तिः इति न प्रयोक्तव्यम्, जागरा इति वा जागरिया इति वा प्रयोक्तव्यम्. जागृधातोः तिन्नन्तं रूपं नास्ति इति अस्माभिः स्मरणीयम्. भवता कथमं पुस्तकम् इष्यते इति बहुधा अस्माभिः प्रश्नः क्रियते. कथमम् इति अशुद्धम्, कथमत् इति प्रयोक्तव्यम्. कथमशब्दः दतमच् प्रत्ययान्तः. अड्डकरादिभ्यः पञ्चभ्यः इति नपुंसके अड्डादेशः, अतः कथमत् इति रूपम्. कथमच् शब्दस्य पुल्लिङ्गं कथमः इति, सः अकारान्तशब्दः. यः पुंसि अकारान्तः सः नपुंसके अमन्तः इति भ्रान्तिः मास्तु, अतः कथमत् इति अस्माभिः प्रयोक्तव्यम्. कथमतिति प्रयोक्तव्यम् इति कथनेन अन्यतम इत्यत्रापि अन्यतमत्, अन्यतमत् उदाहरणं वदतु भोः इति न प्रयोक्तव्यम्. अन्यतमत् इति अपशब्दः, अन्यतमम् इति प्रयोक्तव्यम्. द्रष्टुं समानः स्यात् श्रवणेऽपि अन्यतम कथम इति, किन्तु कथमशब्दः दतमस्प्रत्ययान्तः न, सः अव्युत्पन्नशब्दः. सः दतमस्प्रत्ययान्त अर्थं स्वभावतः बोधयति, किन्तु अन्यतमम् इत्येव प्रयोक्तव्यम्. प्रादेशिकभाषासु बहुधा एतादृशप्रयोगाः अस्माभिः दृश्यन्ते. संस्कृतेऽपि भ्रान्त्या तथा प्रयुज्यते. अत्र चिकित्सार्थं धनं न स्वीक्रियते. उचिता चिकित्सा अत्र इति प्रयोगः। उचित शब्दः अस्थाने प्रयुक्तः। निःशुल्का चिकित्सा इति प्रयोक्तव्यम्। उचित इति शब्दः योग्यः अर्हः इति अर्थं बोधयति। सः अर्थः अत्र न अभिप्रेतः। शुल्कं विना या चिकित्सा सा निःशुल्का चिकित्सा इति उच्यते। अतः उचितशब्दः न प्रयोक्तव्यः। एषः धनिकः उदारी। उदारी इति अपशब्दः। उदारः इति प्रयोक्तव्यम्। उदारः इति शब्दः धर्मीपरः, औदार्यवान् इत्यर्थः। अतः पुनः धर्मीपरता निमित्तं मसु प्रत्ययः नापेक्षितः, उदारः इति कथनं पर्याप्तम्। यदि सर्वाणि घटकानि सम्यक् कार्यं कुर्वन्ति तर्हि संस्था वर्धते। अत्र युनिट् इति अर्थः ज्ञापयितुमिष्टः। घटकानि इति प्रयोगः न दोषाय, शब्दान्तरमपि प्रयोक्तुं शक्यते। सूत्रघटकम् इदं पदम् इति प्रयोगः शास्त्रेषु अस्ति एव। अतः घटकपदस्य सम्बन्धकल्पकः, अल्पकम्, अङ्गम् इत्यादि अर्थाः सन्ति। अतः घटकशब्दः सम्मर्थं बोधयति। यदि तेन पदेन सन्तोषः नास्ति तर्हि अन्यत् पदं प्रयोक्तुं शक्यते। एतावत् पर्यन्तं वयं तान् विषयान् श्रुतवन्तः सुबन्तम् इति विषये। एते सर्वेऽपि पाठाः यथा भवद्भिः ज्ञाताः अत्र अस्मिन् जालपुटे उपलब्धाः सन्ति, तत्र द्रष्टुं शक्यन्ते। यदि केऽपि सन्देहाः सन्ति तत्र विद्युत्पत्रद्वारा सन्देहाः प्रष्टुं शक्यन्ते। अद्य पाठिते अथवा पूर्वं पाठितेषु विषयेषु केऽपि सन्देहाः सन्ति चेत् प्रष्टुमर्हन्ति। कृपया हस्तम् उत्तोलयन्तु। अन्यथा अद्यतनं पाठम् अत्र समापयामः। कल्पिता महोदय, प्रश्नः अस्ति वा?
श्रूयते। निराशः इति अस्ति खलु, दर्शयितुं शक्यते? अत्र निर्गता आशा यस्मात् सः निराशः इति पुल्लिङ्गशब्दः, तथैव स्त्रीलिङ्गशब्दं कर्तुं शक्नुमः वा? इत्युक्ते निराशा इति
यस्मात् सः निराशा इति प्रयोक्तुं शक्यते।
परन्तु भाववाचकं करणीयं चेत् निराशतया इत्येव वक्तव्यं।
सत्यं, तत्र तु भाववाचक पुल्लिङ्गस्त्रीलिङ्गभेदः नास्ति।
तत्र नैराश्यं निराशतया एवं शक्यते। तर्हि निराशा इति केवलं समस्तपदं क्रियते तत्र।
सत्यम्।
अस्तु, अवगतम्।
अद्यतनं पाठम् अत्र समापयामः। सर्वेभ्यः नमस्काराः, धन्यवादाः।